प्रवृत्ति शस्त्रसंपाति धनुर्द्गम पांडव ऋषिकेशं तदा वाक्यं विदामाह महीपति सेनयोर्वयोर्मध्ये रथं स्थापयो मे च्युता जावलीतान् निरीक्षीहं जूर्धुकामान् व्यवस्थितान् कूर्मया स्वयमया सहजोद्यव्यम् अस्मिन् रणसमुद्रम् जूषमाणानवेक्षीहं जायेत्यत्र समागतः दासरास्ता स दुर्बुद्धि संजय उवाचम् एवमुक्त ऋषिकेशम् गुराकेशेन भारतम् सेनयोरुभयोर्मध्ये स्थापयित्यारथोत्तमम् भीष्मद्रोणप्रमुखतम् सर्वेषां समहीक्षिताम् उवाच पार्थपुष्यैतान् समोवेदान् कुरुनिति आचार्यान् मातुलान् भाग्रीन् पुत्रान् पौत्रान् सखीं सतां ससुरां सुहृदान् चैव सेनयो गृहयोरपि तान् समीक्ष सौकुन्तीयम् सर्वान् बन्धो नवस्थितान् कृपया प्रयाविष्टो विषीदन् इदमब्रवीत् अर्जुनवाच दृष्टिवं सजनं कृष्ण जुजुष्टं समुपस्थितम् सीदन्ति मम गत्राणि मुखं च परिशुष्यति भीभूतश्च शरीरमे सोमहर्षश्च जायति गाण्डिवं संसति हस्तात्तस्यैव परिदह्यति न तु स्वप्नम् अहम् अवस्थातुं भ्रमतीव चामि मनः निमित्तानि च पश्यामि विपरीतानि केशवं न च श्रीवनो पश्यामि अत्यासजनमाहवि न काङ्क्षी विजयं कृष्ण न च राज्यं सुखानि च किं नो राज्ञीन् गोविन्द किं को वै जीवितेन वा जीषावश्रीकाङ्क्षिनं नो राज्यं भुवा सुखानि च त्वयिमेव स्थिता युद्धि प्राणां सत्याधुनानि च आचार्य पितरो पुत्रां तथैव च पितामह मातुला ससुरा पौत्रा श्याला सम्बन्धिनस्तथा एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन अपि त्रैलक्य राज्यस्य एतत् किम् निहत्य धातराप्यान्य का प्रीतिश जनार्दन पापमेव सहेदस्मान् अत्रैतानासुखान्य तस्मान्नाहा वयं हन्तु धातराष्टान् समान्धवान् सजनं हि कथं हत्वा सुखिनश्याममानव जद्दैपेतेन पश्यन्ति लोहोपोहतचेतसं कुलक्षयो कृतं दोषं मित्रद्रोही च पाशकम् कथं न ज्ञेयमस्माभिः पापादस्मान् निवर्तितं कुलक्षय कृतं दोषं तपस्तदीतनार्जनम् कुलक्षये प्रणश्यन्ति क कुलधर्मासनातनां धर्मीनस्ति कुलकृष्णम् अधर्मोऽविभावृतः अधर्माभिभवाकृष्णम् प्रदुष्यन्ति कुलस्त्रियः स्त्रीषु दुष्टासु बाष्मीयम् जायति वर्णशङ्कर शङ्करो नरकायैव कुलघ्नाणां कुलस्य च पतन्ति पितरोद्धीशां लुप्तपिण्डो गतक्रिया दोषैरेतै कुलघ्नाणां वर्णशङ्करकारकै उत्सादन्ति जातिधर्मा कुलधर्मां च शास्त्रता उत्सन्य कुलधर्माणां मनुष्याणां जनार्दनं नरके नियतं वासु भवतीत्यानुसुष्म ओवतो महामहत्पापं कर्तुं भवसिताभयं जगराज्य सुखलोभेन अन्तं सजनं मुद्गतः हृदिमामप्रतिकार सत्रं सत्रपाणय धातुराष्ट्रारणी अन्यो तन्मे क्षीमतरं भवे सञ्जय उवाच एव मुक्त्या अर्जुनस्थाङ्की रतूपस्तूपाविशत् विसिज्या सधरं चाहुं शूपसंवेदामानसः ॐ तत्सदिति श्रीमद्भागवत् भगवद्गीतासुपनिषत्सु ब्रह्म विद्यायां योग शास्त्रे श्री कृष्ण अर्जुन संवादे अर्जुन विषाद योग नामा प्रथम अध्याय।